इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। अंगीकृतस्य संविधानस्य ह्यः 75वां वार्षिक सम्पूर्ति दिवसः आमानितः। प्रशासनेन अत्रावसरे अद्यारभ्य एकवर्षपर्यन्तं प्रचल्यमानस्य समारोहस्य प्रारम्भः कृतः। अवधेयं वर्तते यत् संविधानसभया 49-1900 वर्षे नवम्बरमासस्य 26 दिनांके संविधानम् अंगीकृतम्। तत्पश्चात् 50-1900 वर्षे जनवरी मासस्य 26 दिनांके क्रियान्वितं जातम्। अत्रावसरे राष्ट्रपतिः द्रौपदी मुर्मुः संविधानसदनस्य केन्द्रीयकक्षे आयोजितम् एकं भव्यं कार्यक्रमं सम्बोधितवती, यत् भारतीयसंविधानम् एकं जीवितं प्रगतिशीलं च ग्रन्थरत्नं वर्तते, यस्य माध्यमेन भारतदेशेन सामाजिकन्यायसमावेशिविकासयोः लक्ष्याः प्राप्ताः। एतदनन्तरं राष्ट्रपतिः जनैः आग्रहं कृतवती यत् ते सांवैधानिक आदर्शानाम् अनुपालनं कुर्युः इति। राष्ट्रपतिः अग्रे अवदत् यत् भारतीयसंविधानस्य प्रस्तावनायां न्यायस्वतन्त्रता, समानता, बन्धुत्वानाम् आदर्शाः समंकिताः। स्वकीये सम्बोधने राष्ट्रपतिः 15 महिलासदस्यानां योगदानम् अपि स्मृतवती। एतासां महिलानां संविधानसभायां महत्वपूर्णभूमिका आसन्। कार्यक्रमस्य वेलायां राष्ट्रपतिः एकस्याः स्मारकमुद्रायाः, एकस्याः प्रेष्यचिटिकायाः च अनावरणं कृतवती। अस्मिन् संविधानदिवसावसरे प्रधानमन्त्री नरेन्द्रमोदी, केन्द्रीयमन्त्रिणः, विपक्षिदलस्य नेतारः, अन्ये च जनाः सम्मिलिताः अभवन्। प्रधानमन्त्री अस्मिन् अवसरे समेभ्यः नागरिकेभ्यः शुभकामनाः प्रदत्तवान्। उक्तवान् च यत् संविधानं राष्ट्रस्य मार्गदर्शकत्वेन अस्ति। अवधेयं वर्तते यत् ह्यः संविधानदिवसस्य 75वें वर्षे अवसरे राष्ट्रपतिः द्रौपदी मुर्मुः संस्कृतभाषायाम् अनूदितां संविधानप्रतिं विमोचितवती। राष्ट्रसुरक्षायां कस्यापि समाह्वानस्य आतंकवादिसंघटनस्य कृते समुचितप्रतिक्रियां दातुं भारतस्य संकल्पः प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रतिपादितम्। गतसायं सर्वोच्चन्यायालये श्रीमोदी संविधानदिवसस्य एकं उत्सवं सम्बोधयन्नासीत्। प्रधानमन्त्रिणा उक्तं यत् संविधानं देशस्य प्रत्येकम् अपेक्षाम् आवश्यकतां च पूरयति, नागरिकानां कृते मार्गदर्शकत्वेन च कार्यं करोति। श्रीमोदिना प्रतिपादितं यत् संविधानेन एव जम्मूकश्मीरे तस्य सम्पूर्णतया कार्यान्वयनं जातम्। अस्मिन् अवसरे प्रधानमन्त्रिणा भारतीयन्यायपालिकायाः 23-2024-2025 वार्षिकप्रतिवेदनम् अपि प्रकाशितम्। केन्द्रीयविधिन्यायमन्त्री अर्जुनराममेघवालः अवदत् यत् भारतीयसंविधानं भारतस्य एकतायाः, अखण्डतायाः, विकासस्य च मौलिकम् आधारमस्ति। निर्वाचनायोगेन ह्यः राज्यसभायाः 6 रिक्तासनानां कृते उपनिर्वाचनानां कृते घोषणा कृता। आन्ध्रप्रदेशस्य 3 आसनानि, ओडिशा, पश्चिमबंग, हरियाणा राज्यानां च एकैकम् आसनानि सम्मिलितानि सन्ति। भारतेन बांग्लादेशस्य अधिकारिभिः आग्रहः कृतः यत् ते हिन्दूनां सर्वेषाम् अल्पसंख्यकानां च सुरक्षां सुनिश्चितं कुर्वन्तु इति, यत्र तेषां शान्तिपूर्णसमागमस्य, अभिव्यक्तिस्वातन्त्र्यस्य च अधिकारः अपि सम्मिलितः अस्ति। एकस्मिन् वक्तव्ये विदेशमन्त्रालयेन उक्तं यत् बांग्लादेशसमिति सनातनस्य प्रवक्तुः सनातनजागरणजोटे इत्यस्य, चिन्मयकृष्णदासस्य निगडनस्य मुक्तेः अस्वीकारं च गभीरचिन्तापूर्णं टिप्पणी कृतम्। तत्र उक्तं यत् एषा घटना बांग्लादेशे अतिवादीनां तत्त्वानां हिन्दुजनेषु, अन्येषु अल्पसंख्यकेषु च उपरि बहुविध आक्रमणानाम् अनन्तरं भवति। लखनऊनगरे ह्यः आरब्धायां 24-2000 सैद मोदी अन्ताराष्ट्रिय बैडमिण्टन प्रतियोगितायां पीवी सिन्धु, लक्ष्यसेना च क्रीडायां शीर्षस्थाने भविष्यतः इति वार्ताः।